इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी आदौ मुख्य वार्ताः राष्ट्रपतिनः द्रौपदी मुर्मू इत्येतस्याः आध्यक्ष्ये राज्यपालानां द्विदिवसीय सम्मेलनस्य आरम्भो जातः केरलराज्ये वायनाड जनपदे अनेकेष् भूस्खलन प्रभावित क्षेत्रेष् अन्वेषण कार्याणि युद्धस्तरेण प्रचलन्ति मृतकानां च संख्या त्रिशतं जाता उत्तराखण्ड राज्ये केदारनाथ धाम्नी अवरुद्धान तीर्थयात्रिणः सुरक्षित स्थानानि प्रत्यानेतुम् अद्य द्वितीय दिवसेऽपि सहायोद्धार कार्याणि विधीयन्ते अमेरिकादेशीय राष्ट्रपति जो बाइडेन आतंकवादी समूहान हमास हिजबुल्लाह हौथी इत्येतान् च विरुध्य इजराइल देशस्य सुरक्षार्थं स्वकीयां प्रतिबद्धतां प्रदर्शितवान् अपि च क्रीडावार्तासु पेरिस ओलम्पिकीति वैश्विक क्रीडाकुम्भे कांस्य पदक द्वय विजेत्री मनु भाकरः 25 मीटरात्मक लक्ष्य वेधन स्पर्धायै चिता भारतीय मिश्रित युगल शरसन्धान दलमपि प्रागुपान्त्य चक्राय चितम् भारत श्रीलंका दलयोर्मध्ये क्रीड्यमाने प्रथमे एकदिवसीय क्रिकेट संघर्षे कोलंबो नगरे प्रथमशः श्रीलंका दलं क्रीडति इदानीं वार्ताः विस्तरेण अद्य राष्ट्रपति भवने द्विदिवसीयस्य राज्यपालानां सम्मेलनस्य आरम्भो जातः राष्ट्रपतिः द्रौपदी मुर्मू इत्येषा सम्मेलनस्य अध्यक्षतां करोति एतद् राष्ट्रपतिनः द्रौपदी मुर्मू वर्यायाः अध्यक्षे राज्यपालानां प्रथमं सम्मेलनम् अस्ति सर्वेषां राज्यानां राज्यपालाः एतस्मिन् सम्मेलने उपस्थितास्सन्ति उपराष्ट्रपतिः जगदीप धनखडः प्रधानमन्त्री नरेन्द्र मोदी अमितशाहः धर्मेन्द्र प्रधानः अश्विनी वैष्णवः डॉ मनसुख मांडवीयाः अनेके च केन्द्रीय मन्त्रिणः अस्मिन् सम्मेलने उपस्थिताः सन्ति सामाजिक संचार पटले एकस्मिन् सन्देशे श्रीमोदी अलिखत् यत् अद्य प्रातः काले असौ राज्यपालानां सम्मेलने भागम् अगृह्णात् इति प्रधानमन्त्री अग्रे अवदत् यत् एतत् महत्वपूर्णं मञ्चम् अस्ति यस्मिन् राज्यपालाः कथं विकासस्य पोषणं कृत्वा समाजसेवां कर्तुं शक्नुवन्ति इति चर्चा जाता नीत्यायोगस्य उपाध्यक्षः मुख्य कार्यकारी अधिकारी अपि च प्रधानमन्त्री कार्यालयस्य अन्ये वरिष्ठाः अधिकारिणः गृहमन्त्रालयस्य मन्त्रिमण्डलीय सचिवाश्च भागं गृहीतवन्तः सम्मेलनस्य कार्यसूच्यां त्रयाणाम् आपराधिक विधीनां कार्यान्वयनम् उच्चशिक्षायां परिमार्जनम् विश्वविद्यालयानां प्रत्यायनम् जनजातीय क्षेत्राणाम् आकांक्षी मण्डलानां खण्डानां च विकासः अपि च माय भारत एक भारत श्रेष्ठ भारत एक वृक्ष मा के नाम इत्यादिषु अभियानेषु राज्यपालानां भूमिका प्राकृतिक कृषिः इत्यादीनां क्षेत्राणां विकासः च समाविष्टास्सन्ति केरलराज्ये वायनाड जनपदे अनेकेष् भूस्खलित क्षेत्रेष् अन्वेषण कार्याणि युद्धस्तरेण प्रचलन्ति मंगलवासरे घटितया अनया महत्या विपत्या अध्ना यावत् प्रायश त्रिशतं जना मृता इति सूच्यते सशस्त्रसेनाया नेतृत्वे अन्वेषण कार्यस्य चतुर्थ दिवसे पदवेट्टिकुन्नु क्षेत्रात् चत्वारः जनाः अनया सेनया रक्षिताः ये जीवितास्सन्ति तेषु एका महिला एका बालिका च विमानेन नीता सम्प्रति चूरलमाला मुण्डकै अट्टमाला चालियार इत्यादिष् सर्वाधिक प्रभावित प्रदेशेष् अन्वेषणाभियानं प्रचाल्यते चत्वारिंशत् दलेषु पञ्चदशाधिक रक्षकाः सन्ति विलुप्तान् जनान् अन्वेष्टुं सर्वाः उपायाः करिष्यन्ते इति अधिकारिणः सूचितवन्तः सम्प्रति वायनाडक्षेत्रे एकनवति सहाय्य शिबिरेष् नवसहस्राधिकाः जनाः निवसन्तः सन्ति तत्रैव उत्तराखण्डराज्ये केदारनाथधाम्नी अवरुद्धान तीर्थयात्रिणः सुरक्षितस्थानानि प्रत्यानेतुम् अद्य द्वितीयदिवसेऽपि सहायोद्धार कार्याणि प्रचलन्ति अद्यावधि केदारनाथात् चतुस्सहस्रात् अधिकाः जनाः सुरक्षिततया रक्षिताः सन्ति भारतीय सेनायाः चीनूक एमआई 17 उदग्रविमानयोः साहाय्येन उद्धारकार्यं द्रुतगत्या प्रचलति इति आकाशवाण्याः वार्ताहरेण सूचितम् अद्य अत्रापि प्रायशः पञ्चशताधिकाः तीर्थयात्रिणः अवरुद्धाः सन्ति। प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। शिक्षामन्त्री धर्मेन्द्र प्रधानः उक्तवान् यत् नीट इति प्राक्स्नातकीय परीक्षायां सूचितायाः किमपि प्रणाल्यानुसारं उल्लंघनं न क्रियते, अतः पुनः परीक्षायाः आवश्यकता नास्तीति शीर्षतम न्यायालयस्य उक्तिः प्रशासनस्य दृष्टिकोणं पोषयति। एकस्मिन् सामाजिक प्रसार तन्त्रजाले लिखिते सन्देशे श्रीप्रधानेन लिखितं यत् सर्वकारः पक्षपातरहित पारदर्शी शून्य त्रुटियुतायै च परीक्षायै प्रतिबद्धो अस्ति। तेनोक्तं यत् शुचितायाः सुनिश्चयाय प्रशासनेन विशेषज्ञानां उच्चस्तरीय समित्याः कृतप्रस्तावाः शीघ्रातिशीघ्रतया अनुपालयिष्यन्ते। भारतस्य 95%+ ग्रामेषु सम्प्रति आन्तर्जालिक सुविधायै 3G उतवा 4G इति दौरभाषिक सम्पर्कः अस्ति। संचार मन्त्रालयद्वारा प्रस्तुत विवरणानुसारि अस्य वर्षस्य अप्रैल मासान्तं यावत् 3.6 लक्ष ग्रामेषु अन्तर्जालस्य सम्प्राप्तिः अस्ति। मन्त्रालयेन एतदपि स्पष्टीकृतं यत् राष्ट्रे अन्तर्जालस्य ग्राहकाः गत 10 वर्षेष् प्रतिवर्षं 14.4% प्रवर्ध्य 16.25 लक्ष कोटितोपि अधिकं संजातम् अस्ति। डाउनलोड इति अवतारणकर्तृ देशेषु स्थानदृष्ट्यापि भारतं 30%+ देशेषु 14.1% क्रमांकात् 16 क्रमांके समागतम् अस्ति। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः नवदिल्ल्यां कृष्यर्थशास्त्रीणां 32वें अन्ताराष्ट्रिय सम्मेलनस्योद्घाटनं विधास्यति। अत्रावसरे सम्मेलने उपस्थितान् अर्थशास्त्रिणः अपि सम्बोधयिष्यति। अस्य वर्षस्य सम्मेलनस्योद्देश्यं वर्तते सतत कृषि खाद्य प्रणाली प्रति परिवर्तनमिति। सम्मेलने वैश्विक कृषि सम्बद्ध समाह्वानानि प्रति भारतस्य सकारात्मक दृष्टिकोणं प्रकाशयिष्यते, अपि च कृष्यनुसन्धाने नीतौ च देशस्य प्रगतिरपि प्रदर्शयिष्यते। अमेरिकायाः राष्ट्रपतिः जो बाइडेनः ह्यः रात्रौ इज़राइल देशस्य प्रधानमन्त्रिणा बेंजामिन नेतन्याहू इत्यनेन सह कृते दौरभाषिक सम्पर्के ईरान देशीयानां संभावित संकटानां सामुख्यार्थं नूतन अमेरिका सैन्य सन्नद्धता विषये अपि चर्चां चर्चितवान्। व्हाइट हाउस इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् राष्ट्रपति जो बाइडेनः आतंकवादी समूहान् हमास, हिजबुल्ला, हौथी इत्येतान् च विरुध्य इजराइल इत्यस्य सुरक्षार्थं स्वकीयां प्रतिबद्धतां प्रदर्शितवान्। पेरिस ओलंपिक क्रीडाकुम्भे अद्य 7वें दिवसे नैके भारतीय क्रीडकाः शरसन्धाने, लक्ष्यवेधने, बैडमिंटन क्रीडायां, जूडो द्वन्द्वे, हॉकी क्रीडायां, अन्यासु च क्रीडासु प्रातिभाग्यं संवहन्ति। अस्मिन् क्रीडाकुम्भे कांस्यपदकद्वय विजेत्री मनु भाकरः 25 मीटरात्मक लक्ष्यवेधन स्पर्धायै चिता। भारतीय मिश्रित युगल शरसन्धान दलमपि चितम्, यत्र एकल पुरुषवर्गस्य बैडमिंटन स्पर्धायां प्रागुपान्त्यचक्रे लक्ष्यसेनः ताइपे चाउचियेन इत्यनेन सह क्रीडति। पुरुष हॉकी क्रीडायां च प्रारम्भिक संघर्षे भारतीय दलम् ऑस्ट्रेलिया दलेन सह क्रीडति। ध्यातव्यं वर्तते यत् हॉकी क्रीडायां भारतीय दलं पूर्वमेव प्रागुपान्त्यचक्राय चितमस्ति। भारत श्रीलंका दलयोर्मध्ये क्रीड्यमाने संघर्षत्रयस्य प्रथमे संघर्षे श्रीलंकायाः कोलंबो नगरे प्रथमशः क्रीडता श्रीलंका दलेन 6 क्रीडकानां हानौ 35 धावनांकाः सन्ति विरचिताः। 37 च कन्दुक प्रक्षेपण चक्राः सन्ति सम्पूरिताः। भारतीय दलम् यदि अद्य जयं लभते तर्हि 100तमो जयः भविष्यति भारतस्य कश्चिदपि देशं विरुध्य। इति वार्ताः।